एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारेण जेनजीवूनां प्रतिनिधिभिः सह ह्य विहितायाः दशसूत्रात्मिकायाः संविधायाः अनुमोदनं विधाय सम्बद्धात् मन्त्रालयात् उच्च प्राथमिकतापूर्वकं क्रियान्वयनाय निर्णीतमस्ति प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः उपविष्टेन मन्त्रिपरिषदः उपवेशेन संविधान अनुमोदनं विधाय राजपत्रे अतिरिक्तांकत्वेन प्रकाशयितुं निर्णीतमस्ति इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री जगदीश खरेलः असूचयत् उपवेशेन प्रधानमन्त्रिणः सुशीला कार्किणः जेनजीवूनां समूहस्य प्रतिनिधिनां च मध्ये सम्भूतायाः संविधायाः अनुसारेण अनुसन्धानायोगस्य कार्यक्षेत्रं वर्धयितुं निर्णीतमस्ति एवमेव मन्त्रिपरिषदः उपवेशेन अधिकार दुरूपयोगानुसन्धानायोगे कार्यरतस्य सहसचिवस्य पुष्कर सापकोटा इत्यस्य सचिवपदे पदोन्नतिं विधाय प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये स्थानान्तरणाय निर्णीय समाज कल्याण परिषदः रिक्तं सदस्य सचिव पदं पूरयितुं च निर्णीतमस्ति इति मन्त्री खरेलः असूचयत् गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतस्य जेनजीवूनाम् आन्दोलनस्य क्रमे चतुरशीतेः अब्जानां पञ्चचत्वारिंशतः कोटीनां सप्तसप्ततेः लक्षाणां च रूप्यकाणां क्षतिः सम्भूता अस्ति इति ज्ञापितम् वर्तते जेनजीवूनां समूहस्य आन्दोलने सम्भूतायाः क्षतेः मूल्याङ्कनेन सह सार्वजनिक संरचनानां पुनर्निर्माणस्य योजनां निर्मातुं संघटितया समित्या ह्य प्रधानमन्त्रिणः सुशीला कार्किणः समीक्षं प्रतिवेदनं प्रस्तुतमस्ति प्रतिवेदने चतुष्पञ्चाशति जनपदेषु क्षतिः प्रापितास्ति सप्तसप्तति जनाश्च मृताः वर्तन्ते इति उल्लिखितमस्ति नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली कथयति दलस्य एकादशतमे महाधिवेशने बलात् सहमतेः प्रयासो न भविष्यति प्रेस चौतारी नेपालेन ह्य काष्ठमण्डपे आयोजिते सम्पादकैस्सह संवाद कार्यक्रमे भाषमाणः अध्यक्षः ओली यथासम्भवं सहमत्या नेतृत्वस्य चयनं भविष्यति तदभावे बलात् सहमतिः न करिष्यते इति समस्पष्टयत् नेतृत्व करिष्यति इति चयनस्य विषयः महाधिवेशनस्य प्रतिनिधिनां विषयो वर्तते इति चर्चयन् अध्यक्षः ओली अनेन महाधिवेशनेन यूनः ससम्मानं केन्द्रीय समितौ चेष्यते चेति अभाषत तदवसरे अध्यक्षः ओली सम्प्रत्यैव नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन सह मेलवार्तायाः क्रमे अर्थपूर्ण विमर्शनं सम्भूतमासीत् इति च असूचयत् प्रधानमन्त्रिणे सुशीला कार्किणी जय मातृभूमि दलेन ज्ञापन पत्रम् अर्पितमस्ति दलस्य प्रतिनिधिमण्डलेन प्रधानमन्त्रिणा कार्किणा सह मेलनं विधाय सर्वकारेण सुशासनस्य मूल कार्यदिशं प्रति केन्द्रितेन भाव्यं निर्वाचनस्य वातावरणं निर्मातुं जेनजीवूनाम् आन्दोलनस्य दमनकारिण भ्रष्टाचारिणश्च शीघ्रं दण्डनीयाश्चेति याचनया सह ज्ञापनपत्रं प्रधानमन्त्रिणे अर्पितम् वर्तते एवमेव दलेन सर्वकारस्य मुख्यं दायित्वं भ्रष्टाचारस्य विरुद्धे दण्डनं वर्तते इत्यतः विषयेऽस्मिन् एव केन्द्रितो भूत्वा स्वस्य कार्यम् अग्रे वर्धनीयमिति च याचितमस्ति मेलने प्रधानमन्त्रिणा कार्किणा स्वस्य याचनां सहैव नीत्वा निर्वाचने सहभागी भवितुं परामृश्य भ्रष्टाचार विरुद्धस्य कार्यं सर्वकारेण सहैव अग्रेसारितमस्ति इति उक्तमासीत् राष्ट्रियसभायाः अन्तर्गतायां विधायन व्यवस्थापन समितौ गतविक्रमवर्षीयं चलचित्र विधेयकमाधृत्य प्रकरणगतं विमर्शनं प्रारब्धम् वर्तते विधेयकमाधृत्य विज्ञैः सम्बद्धपक्षैः संशोधनकर्तृभिः सांसदैश्च सह विमर्शनं समाप्य समितौ सम्प्रति प्रकरणगतं विमर्शनं प्रारब्धम् वर्तते विमर्शने सांसदः चलचित्रक्षेत्रे अन्तर्राष्ट्रिय निवेशनस्य वातावरणस्य सम्पादनस्य अस्य क्षेत्रस्य प्रविधि मैत्रिणः सम्पादनस्य उद्योगस्य रूपेण अग्रेवर्धनस्य च विषयः प्रस्तावनायां स्पष्टरूपेण समावेशनीयः इति बलं दत्तवन्तः उपवेशे संचार सूचना प्रविधि मन्त्री जगदीश खरेलः विधेयकस्य विमर्शनस्य क्रमे विभिन्न पक्षैः परामृष्टान् विषयान् विधेयके समाविश्य अग्रे वर्धितुं शक्यते इति उदयरायत पर्यटनाय विदेशम गन्तुकामेभ्य नेपालीभ्य अवैध रूपेण वित्तम गृहीतमिति आरोपे अधिकार दुरूपयोग अनुसन्धान आयोगेन सहसचिवेन तीर्थराज भट्टराई इत्यनेन सहितानां सप्तानां जनानां विरूद्धे भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन त्रिभुवनान्तरराष्ट्रिय विमानस्थलस्य अध्यागमन कार्यालयस्य तात्कालिकेन प्रमुखेन सहसचिवेन भट्टराई इत्यनेन सहितानां सप्तानां जनानां संस्थाद्वयस्य च विरूद्धे न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन गत चैत्रस्य सप्तमे दिवसे सहसचिवस्य भट्टराई इत्यस्य निग्रहणानन्तरं पर्यटनाय देशान्तर प्रवेशाज्ञानुमतिपत्र सम्बद्धं प्रकरणमेतद् सार्वजनीभूतम् आसीत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नेपालस्य कृते विभिन्नानां देशानां नवनियुक्तैः राजदूतैः स्वपदस्य प्रमाणपत्राणि प्रस्तुतानि सन्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य सम्भूते विशेष समारोहे राष्ट्रपते पौडेलस्य समक्षम उज्बेकिस्तान रोमानिया ताजिकिस्तान आइसलैण्ड क्यूबा देशानां राजदूतैः स्वपदस्य प्रमाणपत्राणि प्रस्तुतानि सन्ति इति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। तदवसरे समारोहे नेपाल सर्वकारस्य उच्चपदस्थाधिकारिणः सहभागिनः आसन्। नेपाल प्रीमियर लीग नाम्न्याः क्रिकेट क्रीडा श्रृंखलायाः द्वितीय चरणस्य प्रतियोगितायाः अन्तर्गतायां ह्य सम्पन्नायाम् उपान्तिम क्रीडायां लुम्बिनी लायन्स समूहेन विराटनगर किंग्स समूहोपरि चत्वारिंशतो धावनांकानाम् अन्तरेण विजयमधिगत्य अन्तिम क्रीडायाः कृते स्थानं सुनिश्चितम् अस्ति। समूह चरणस्य क्रीडासु सुदूरपश्चिम समूह प्रथम स्थाने आसीत् चेत् लुम्बिनी लायन्स समूह द्वितीय स्थाने वर्तते। अस्याम् श्रृंखलायां सुदूरपश्चिम समूह सर्वापेक्षया शक्तिशाली दृष्ट अस्ति तथैव लुम्बिनी लायन्स समूहेन च अन्तिमासु पञ्चसु क्रीडासु निरन्तरं विजयः प्राप्तः अस्ति इत्यतः अन्तिम क्रीडा ततोऽपि प्रतिस्पर्धायुता भविष्यति इति विश्वासः कृत अस्ति। श्रृंखलायाः उपाधिम् अधिगन्तुं श्वो अन्तिम प्रतिस्पर्धा भविष्यति इति समाचारः।